योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्योस्समो भूत्वा समत्वं योग उच्यते।